नमस्सर्वेभ्यः अद्यतनपाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम् अस्तु महोदय।
वदामि वा?
वदतु।
श्रूयते? अग्नि श्रूयते?
आम् सम्यक् श्रूयते महोदय।
मङ्गलाचरणं येन दोता गिरपुंसां विमलैः शब्दवारिणि तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः तस्मै पाणिनये नमः। हरि ओं गुरुवे नमो नमः।
धन्यवादः महोदय। तत्र एकमेव नमः संस्कृते विसर्गः अपि अस्ति।
नमः।
धन्यवादः। अद्य अस्माकं नूतन इत् संज्ञाप्रकरणम् इति पाठः आरभ्यते। अस्मात् पूर्वं वयं किञ्चित् इत्संज्ञायाः विषये ज्ञातवन्तः। तत्र संज्ञा इत्युक्ते किम्? नामकरणम्। यथा सर्वेषां नाम अस्ति तथैव व्याकरणे अपि केचन नामानि सन्ति तेषां संज्ञा इति संज्ञा अस्ति अथवा संज्ञा विधीयते इति वदामः। अस्माभिः इत् इति संज्ञा दृष्टा। कुत्र दृष्टा? यदा वयं दशगणाः के अपि च तत्र वितरणप्रत्ययाः के तत्र वयं शप्रत्यये शन् प्रत्यये इत्यादि वितरणप्रत्ययाः दृष्ट्वा तत्र शकारस्य इत्संज्ञा भवति पकारस्य इत्संज्ञा भवति अपि च तेषां लोपः भवति अदृष्टः भवन्ति इत्यादि दृष्टवन्तः। तत्र ये अनुबन्धा इत्संज्ञा इत्यस्य अन्यत् नाम अस्ति अनुबन्धः। अनुबन्धः अनन्तरम् अपगच्छति। परन्तु कुत्र केषाम् इत्संज्ञा भवति अपि च इत्संज्ञायाः प्रयोजनं किम् इत्यादि वयम् अनन्तरं पश्यामः। अद्य अस्माकं पाठे केषाम् इत्संज्ञा भवति अपि च इत्संज्ञानन्तरं किं भवति इति इत्संज्ञाप्रकरणम् इत्यस्य विषयः भवति। प्रकरणम् इत्युक्ते किं कोऽपि जानाति वा?
इन्
रिलेशन् टु द सेम् टु द स्पेसिफैड् सब्जेक्ट्।
आम् परन्तु संस्कृतेन वदतु।
प्रसङ्गेन भिन्नं भिन्नं प्रकरणम् अस्ति। विशिष्टप्रकरणे किं कार्यं भवति यत् तत्समुदाय प्रकरणं उच्यते।
सम्यक् सम्यक् सम्यक्। विशिष्टकार्याणि सन्ति तत्र एकविधकार्यस्य कृते यानि यानि सूत्राणि सन्ति सर्वाणि एकत्र स्थापितानि सन्ति अतः तस्य नाम प्रकरण। यथा वयं गृहे पाकशाला अस्ति स्नानगृहम् अस्ति इत्यादि तत्र तत्र विशिष्टप्रकोष्ठे एव तत् सामग्री अस्ति तथैव पाणिनिना अष्टाध्याय्याम् अष्टाध्यायाः कृताः तत्र चत्वारपादाः सन्ति अपि च प्रत्येकपादे सूत्राणि सन्ति परन्तु सूत्रस्य विशिष्टक्रमः अस्ति अपि च एककार्यम् अस्ति चेत् तस्य तत्सम्बन्धानि सूत्राणि सर्वाणि एकत्र स्थापितानि सन्ति किमर्थं तत्र लाघवत्वम् अनुवृत्ति इत्यादि ध्येयमपि आसीत् अपि च अस्माभिः यदा नकारस्य णत्वं भवति अथवा सकारस्य श मूर्धन्यषकारः भवति सन्धि अपि षष्ठमाध्याये प्रथमपादे अपि अस्ति अपि च अष्टमाध्याये चतुर्थपादे अपि अस्ति हल्सन्धि अच् सन्धि अर्थात् यत्र स्वराणां सन्धि अस्ति तत्सर्वं षष्ठाध्याये प्रथमपादे अस्ति इत्यादि अनेकानि प्रकरणानि प्राणिनिना अष्टाध्याय्यां स्थापितानि इत् संज्ञा इत्युक्ते वयं दृष्टवन्तः धातुषु प्रत्ययेषु आगमेषु आदेशेषु केचन वर्णाः सन्ति ते इत्संज्ञका इति भवन्ति अपि च तेषां किञ्चित् प्रयोजनम् अस्ति वयं षकारपकार इत्यस्य किं प्रयोजनम् इति दृष्टवन्तः कोऽपि वक्तुं शक्यते वा षकार इत्संज्ञक अस्ति चेत् किं भवति
षकार इत्संज्ञा कारणे गुणप्रवृत्तिं भवति
अपि च पकार
संज्ञा वर्तते तर्हि धातुवे न प्रत्यये इक् धातु इक् वर्तते तर्हि गुण भवति कारणे इति संज्ञाकारणे
तत्र षकारगुणं प्रेरयति परन्तु पकारेण षकार अस्ति चेत् गुण भवितुम् अर्हति परन्तु पकार अस्ति चेत् एव पकार इत्संज्ञक अस्ति चेत् एव तत्र गुण भवति अथवा गुण न भवति अस्तु अपि च वयं अन्यत् एक विषयः आसीत् तत्रापि इत्संज्ञकवर्णाः दृष्टाः कोऽपि वक्तुं शक्यते वा
प्रश्नः एकवारं पुनः वदतु भगिनि
इदानीम् अस्माभिः विकरणप्रत्ययस्य कृते तत्र वयं यदा वयं विकरणप्रत्ययान् अधीतवन्तः किञ्चित् तत्र इत्संज्ञा अस्ति केषां केषाञ्चित् वर्णानाम् इति दृष्टम् अनन्तरम् अन्यत् एकविषयः आसीत् यत्र पुनः इत्संज्ञकवर्णानां विषयः आसीत् स्मरति वा आम् माहेश्वराणि सूत्राणि तत्र माहेश्वराणि सूत्राणि प्रथमसूत्रं किम् तदनन्तरं तत्र एवम् आम् तत्र इत्संज्ञकवर्णाः के आम् अन्तिमहल् वर्ण इत्संज्ञक आसीत् किमर्थं वयं यदा प्रत्याहारं प्रत्याहाराणि कृतवन्तः प्रत्याहाराः कृतवन्तः तत्र ये सूत्रस्य अन्ते व्यञ्जनानि आसन् तेषां ग्रहणं न कृतं ते अपि इत्संज्ञकवर्णाः आसीत् सन्ति आसीत् सन्ति अस्तु इदानीम् इत् संज्ञा कुत्र भवति इदानीम् इत् संज्ञा उपदेशि उपदेशे एव भवति उपदेश नाम किम्
आद्यवचनम्
आद्योच्चारणम् इत्युक्ते किम्
तैः उक्तम्
उपदेश इत्युक्ते
मूलरूपे
त्रिमुनिना त्रिमुनिना उच्यते तस्य नाम उपदेशः
इदानीं मूर्तिमहोदय उक्तवन्तः इति मन्ये पाणिनिना अष्टाध्यायी तत्र उपदेश इति उक्तम् पाणिनिना केवल अष्टाध्यायी रचितानि वा आम् आम् अतः औपदेशिक इत्युक्ते यथा कीर्तिः भगिन्या उक्त त्रिमुनिना आद्योच्चारणं प्रथमम् उक्तं तत् एव उपदेश इति वदामः तत्र धातुः अपि अस्ति प्रत्ययाः अपि सन्ति सूत्राणि सन्ति अपि च लिङ्गानुशासनं गुणादिप्रत्ययः इत्यादि शब्दपाठः तत् आद्योच्चारणं तत् उपदेशः तदनन्तरं वार्तिकानि आसीत् अपि च अनन्तरं महाभाष्यं तत्र आद्योच्चारणम् इति वदामः वयं सर्वे गच्छति इति धातु रूपं जानामि जानीमः खलु तत्र मूलधातु किम् अस्ति गम् गम् इत्यस्य गच्छति भवति गम् परन्तु लौकिकधातु अस्ति तत् वयं प्रयुञ्जमहे परन्तु धातुपाठे गम् इति धातु नास्ति तत्र गम् लु इति धातु अस्ति तत्र लु इति यत् वर्णः आसीत् तत् लोके न दृश्यते धातुपाठे अस्ति परन्तु यदा वयं प्रयुञ्जमहे तत्र लु नास्ति एतादृशवर्णाः अनुबन्धः वा इत् संज्ञकाः इति उच्यन्ते ये औपदेशिक अवस्थायाम् आसीत् अथवा औपदेशिक अवस्थायां सन्ति परन्तु लौकिक उपयोगे न दृश्यन्ते ते अनुबन्धः इति वदामः तेषाम् एव इत् इति संज्ञा भवति इत् इति संज्ञा अस्ति अतः लौकिकरूपम् अपि च औपदेशिकरूपं यत् अस्ति तत्र किं भिन्नम्
औपदेशिकरूपे वर्णाः सन्ति व्यवहारे तद् न सन्ति तस्य लोपः भवति
तत् सर्वदा स्मरणीय स्मर्तव्यम् केचन अत्र उदाहरणानि सन्ति तदनन्तरं वयं करपत्रं पठामः औपदेशिकधातु यथा वयं गम्लु दृष्टवन्तः तथैव युज इति धातु अस्ति तत्र युज इत्यत्र यकार उकार जकार अपि च ह इति अनुनासिक अकारः अस्ति एतत् लौकिकरूपे न दृश्यते वयं केवलं युज् इति निरनुबन्धधातु एव पश्यामः युज् प्रयुक्त यूज् इत्यस्य प्रयोजनं वयं धातुरूपे यदा वयं लट्लकार लोट्लकार इत्यादि कुर्मः तत्र यूज् इति धातु प्रयोगे आनीमः. तदनन्तरं वयं शन् शक् श्नु श्नम् इत्यादि विकरणप्रत्ययाः अपि दृष्टवन्तः. तत्रापि शकारस्य इत्संज्ञा भवति, नकारस्य इत्संज्ञा. अतः शन् इति प्रत्ययः आसीत् परन्तु लोके तस्य यकार एव तिष्ठति. शकार अपि अपगच्छति, नकार अपि अपगच्छति. अतः वयं लौकिकरूपं किम् इति यत् अधीतवन्तः, अकार यकार श्नु इत्यत्र नु इत्यादि, तेषां निरनुबन्धविकरण इति वदामः. यदा युज इति पश्यामः तत्र युज इति औपदेशिकधातु, क्षन् इति औपदेशिकप्रत्ययः, तदनन्तरं वयं ते इति तात्पर्यपदि प्रत्ययं योजयामः. तत्र युज य ते इत्येव प्रक्रियायाम् अवशिष्यते. तदनन्तरं तस्य अन्य कोऽपि कार्यम् अस्ति चेत् कार्यं कृत्वा युज्यते इत्यादि रूपाणि सिद्ध्यन्ति. कोऽपि प्रश्नाः सन्ति वा इत्संज्ञा विषये, अपि च उपदेश किम् अनुबन्ध किम् इत्यस्य कृते एव. अस्तु, नास्ति चेत् किञ्चित् पठित्वा सर्वे प्रतिपादयन्तु. अनुराधा भगिनी पठितुम् इच्छति वा?
अत्र इत्संज्ञा नाम का इति अस्माभिः ज्ञास्यते. व्याकरणे पाणिनिना यदा किञ्चन मूलरूपं दीयते, धातुः, प्रत्ययः, आदेशः, आगमः, तदा तस्य मूलरूपस्य नाम उपदेशः. उपदेशावस्थायां यानि मूलरूपाणि सन्ति तेषु बहुवारं केचन वर्णाः उपस्थिताः ये प्रक्रियायां लौकिकरूपेषु च न तिष्ठन्ति. यथा गम्
तद् तावदेव भगिनी, किञ्चित् किम् अवगतवती इति वदतु. न श्रूयते, अहमेव वा? इदानीं श्रूयते. एकनिमिषम् अहं किञ्चित् इदानीं वदतु भगिनी, सर्वैः श्रूयते वा?
आं सम्यक् श्रूयते.
अनुराधा भगिनी अपि सर्वे श्रुतं वा?
न.
अस्तु भगिनी, पुनः एकवारं किञ्चित् वदतु. न श्रूयते भगिनी, अनन्तरं पुनः एकवारं प्रयत्नं कुर्मः. एकवारं पुनः एकवारम् आगच्छतु. जस्ट् डिस्कनेक्ट् अण्ड् कम् बेक्. अशोक् महोदय किञ्चित् प्रतिपादयति वा?
रूपं दीयते, धातुः, प्रत्ययः, आदेशः, आगमः, तदा तस्य मूलरूपस्य नाम उपदेशः. उपदेश अवस्थायां यानि मूलरूपाणि सन्ति तेषु बहुवारं केचन वर्णाः उपस्थिताः ये प्रक्रियायां लौकिकरूपेषु च न तिष्ठन्ति यः वदति व्याकरणे पाणिनिना धातवस्य धातोः मूलरूपं दीयते प्रत्ययानां मूलरूपमपि आदेशः अपि आगमः तस्य मूलरूपम् उपदेश इति उच्यते किन्तु लौकिकप्रयोगे मूलरूपाणि चे चेञ्ज्
परिवर्तनं भवति
भगिनी एतादृश किमर्थं भवति किमर्थं तेषां तथैव रूपं स्वरूपं न स्वीकुर्मः
तत्र वयम् अनन्तरं पश्यामः ये अनुबन्धाः सन्ति तेषां प्रयोजनं किम् इति अस्तु इदानीं तु केषां भवति तदेव इदानीं वयं पठ्यते अस्तु धन्यवादः महोदय मूर्तिमहोदय
मूर्तिमहोदय इति चेत् तस्य वर्णस्य इति संज्ञा तस्य रूपस्य
भगिनी अत्र यथा गम् धातु तद् आवश्यकं न पठनं
यदा गम् धातु यथा गम् धातुः
महोदय भवतः ध्वनि किञ्चित् सर्वदा प्राब्लम् अस्ति सम्यक् न श्रूयते अन्तर्जालस्य समस्या अस्ति इति मन्ये क्षम्यतां गोविन्द एवं वा अस्तु गोविन्दराजन् महोदय पठति वा
श्रूयते वा
भगिनि श्रूयते
यथा गम् धातुः लटि गच्छति उपदेशे अस्य धातोः नाम गौरु लु इति वर्णः लोके न तिष्ठति प्रक्रियायां तस्य लोपः भवति ये वर्णाः उपदेशे सन्ति परन्तु लोके न तेषां नाम अनुबन्धः अपि च तेषां विशिष्टासना भवति इत्संज्ञा तर्हि इमा वर्णाः स्वयम् इत्संज्ञकाः इत्युच्यन्ते इत्युक्ते पाणिनिव्याकरणे सर्वं धातुः आगमः उपदेशः सर्वं
अल्
लोके न तिष्ठति. उदाहरणे गौ गौ मूलधातुः परन्तु लोके केवलं गणधातु भवति. गम् गौ उच्यते अनुबन्धः पूर्णधातुः गरुडु पाणानि महर्षि उच्यते तेषां नाम अनुबन्धः. लु वर्णः इत्सवर्णः भवति अनुबन्ध अनुबन्ध अनुबन्धः नाम. सम्यक् अस्ति वा भगिनि? इति समाप्तं
भगिनि. एकवारं
वदतु भगिनि.
भवती पुनः एकवारं तत् अनु ये अनुबन्धवर्णाः तेषां सम्यकः भवति सर्वदा वा?
तेषामेव नाम अनुबन्ध अपि च इत् इति द्वयोः संज्ञा एक एव तेषां वर्णानामेव अनुबन्ध इत्युक्ते इत् संज्ञक.
इतोपि लोके
न श्रुतं भगिनि. लोके न तिष्ठन्ति. लोके इत्युक्ते यदा वयं धातोः प्रयोगं कुर्मः गम्लु इति आसीत् तत्र एव शप् अपि च ति भूत्वा गम्लुति इति भवेत् खलु. परन्तु तत्र लु न दृश्यते, गम् अस्ति. कथञ्चित् गम् इत्यस्य गच्छ भवति अपि च तदनन्तरं रूपं भवति गच्छति पठति पचति इत्यादि. पच अपि यः धातुः अस्ति मूलधातुः तु डुपचश् अस्ति. तत्र अन्ये केचन वर्णाः सन्ति परन्तु तत्र डु न दृश्यते, श न दृश्यते, अनुनासिककारः अस्ति तदपि न दृश्यते. डुपचश् इति धातुः अस्ति तत्र पच् एव तिष्ठति. तदनन्तरं यदा वयं पचति पचते इति कुर्मः तत्र पच् इत्येव स्वीकुर्मः लौकिकधातु.
न तर्हि प्रश्नः अस्ति लौकिक इत्युक्ते पाणिनि अपि यदा तस्य प्रयोगं करोति तदापि
लौकिक
ऐ फेल् दट् लौकिक इत्युक्ते वाट् वि आर् डूङ्ग् एण्ड् पाणिनि वास् डूङ्ग् सम्थिङ्ग् डिफ्रेण्ट् इति अस्ति वा? न
पाणिनिना उक्ता तत् औपदेशिक धातु. तदनन्तरं लौकिकधातु इत्युक्ते लोके यत् प्रयुज्यते, भाषायां यस्य उपयोगः भवति तत् लौकिक. सो इट्स् नाट् लैक् ही वास् इन् हेवेन् एण्ड् वि आर् हियर् आन् अर्थ्. तत्र औपदेशिकधातु मूलरूपम् एकम् आसीत् तस्य परिवर्तनं भूत्वा पाणिनि अपि यदा गच्छतु वदति तदा गच्छतु एव वदति, गम्यतु इति न वदति. पाणिनिना अपि प्रयो लौकिक इत्युक्ते प्रयोगे या भाषा अस्ति तत्र यत् प्रयुक्तं तत् लौकिक.
अवगतम्.
अस्तु, केत्की भगिनी अस्ति वा?
आं भगिनी.
इत् संज्ञायाः प्रयोजनम् इति एतत् परिच्छेदं पठतु.
इत्संज्ञायाः प्रयोजनं किम् इति चेत् यस्य वर्णस्य इतसंज्ञा तस्य लोपो भवति. केषां केषां वर्णानाम् इतसंज्ञा भवति इति ज्ञायते इत्संज्ञाविधायकसूत्रैः. तत्र सप्तसूत्राणि सन्ति. मिलित्वा तेषां नाम इत्संज्ञाप्रकरणं प्रकरणं पाणिनिने
प्रमुखग्रन्थः अष्टाध्यायी इदं प्रकरणम् अष्टाध्याय्याम् एभिः च सप्तभिः सूत्रे सर्वम् इति संज्ञाविधायककार्यं सिद्ध्यति प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रतात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञाप्रकरणम् इत्संज्ञाया तस्य प्रयोजनं किम् अस्ति तस्य वर्णनम् अस्ति यस् इत्संज्ञा इत्युक्ते किम् इत्संज्ञा लोप भवति परन्तु केषां केषां वर्णानाम् इत्संज्ञा भवति तस्य सर्वाणि इन्फर्मेशन् माहिति अत्र विधायकसूत्रे अस्ति तत्र सप्तसूत्राणि अस्ति मिलित्वा तेषां नाम इत्यसंज्ञाप्रकरणम् अस्ति पाणिनीये प्रमुखग्रन्थः अष्टाध्यायी अस्ति इदं प्रकरणम् अष्टाध्याय्याम् तत्र सप्तभिः सूत्रे सर्वम् इत्संज्ञाविधायककार्यम् अस्ति प्रथम अध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञाप्रकरणं भवति अस्तु भगिनि
सम्यक् भगिनि सूत्राणि सन्ति बहुवचनम् अस्ति खलु सूत्राणि अस्ति न भवति सूत्रम् अस्ति सूत्राणि सन्ति सर्वेषां पुरतः अष्टाध्यायी सूत्रपाठः इति माताजी लिखितं पुस्तकम् अस्ति वा अथवा अन्य कोऽपि अष्टाध्यायी अस्ति वा
अस्ति महोदय अस्ति
भगिनी भगिनी एक समय यू टोल्ड अस दैट इन दैट बुक देयर इज अ प्रकृति प्रक्रिया अस्ति परन्तु आई हैव सीन देयर इज नो प्रक्रिया हाउ टू डू दैट स्टेप बाय स्टेप दैट इज नॉट इन साइड द बुक
अष्टाध्यायां प्रक्रिया नास्ति
प्रक्रिया
अस्ति सहजबोध इति यत् षट् पुस्तकानि सन्ति तत्र
आं भगिनि ऐ हेव् अ सिक्स् बुक्स् देट् अष्टाध्यायी सहजबोध द्वितीयभाग प्रथमभाग परन्तु सूत्र तत्र स्टेप् बै स्टेप् प्रक्रिया न दृश्यते
अस्ति भगिनि पुरी
भगिनि
केचन पाठाः पठित्वा एव प्रक्रिया अवगम्यते अपि च अस्माकं पाठा ये पाठाः सन्ति तत्रापि प्रक्रिया अवगम्य टेन् स्टेप्स् टु गेट् युर् लट्लकार् इन् वन् प्लेस् इट् इस् गोयिङ्ग् इन् स्टेप्स् ओन्ली बट् कन्सेप्ट्स् आर् कवर्ड् फस्ट् अतः सम्यक् पठित्वा पठति चेत् तत्र अस्ति एव
अस्तु
यदि अष्टाध्यायी इति पुस्तकम् अस्ति चेत् तत्र किञ्चित् सप्तसूत्राणि पठामः एकचत्वारिंशत् पुटं तत्र प्रथमपादे प्रथमाध्याये तृतीयपादः कस्य पुरतः अस्ति पुस्तकं
मम कृते अस्ति भगिनि
मम पुरतः अस्ति
अस्तु आल् थ्री आफ् यू केन् रीड् प्रथमं केत्कि भगिनि पठतु
आम् वन्
अस्तु युगलकिशोर् महोदय
आम् महोदय
प्रारम्भं करोतु एकचत्वारिंशत् पुटे तृतीयपादः
आम् धातुसंज्ञा सर्वोपरि अस्ति भूआदयो धातवः तत्परम् इत्संज्ञाप्रकरणम् अस्ति तत्र सूत्रं नम्बर् द्वि उपदेशे जनुनासिक् इति तत्परं फल्यन्तं फलन्त्यम् चत्वारि अस्ति न विभक्तो सुष्माः
तत्परम् आदिति तूडवः तत्परं सः प्रत्यस्य चूटु लसक् तद्धिते तस्य लोप
तावदेव परन्तु तस्य लोपः इति संज्ञाप्रकरणे अस्ति वा
आम् आम्
परन्तु
तत्र
संज्ञाप्रकरणं
नास्ति
अस्तु धन्यवादः महोदय केतकी भगिनी पुस्तकमस्ति वा
आं भगिनि
पुनः एकवारं भवती अपि पठतु
आम् प्रथम अध्याये तृतीयपादः धातुसंज्ञा भूवादयो धातवः इति संज्ञाप्रकरणम् उपदेशे जनुनासिक इति फलन्त्यम् न विभक्तौ तुस्माः आदिर्नि टुडवः शः प्रत्ययस्य च्युतु लशकत्वद्धिते नन्तरम् इतलोपविधि तस्य लोप
धन्यवादः अन्यतः आसीत् पुस्तकमस्ति इति वदन् अस्ति
अहं पठामि वा
अहं पठामि उक्त्वा मम पार्श्वे नामानि
केवि केवि
केवि आम् सुधा भगिनी पठति तदनन्तरं केवि महोदय अपि पठति आम् पठतु भगिनि
प्रथमाध्याये तृतीयपादः धातुसंज्ञा उवादयो धातवः संज्ञाप्रकरणम् उपदेशे अनुनासिक इत् अनन्त्यं न विभक्तौ सुष्माः आदिर्नि चुडवः शः प्रत्ययस्य चुटु दशत्वतटिके अपि च विधि शुद्धमस्ति तस्य लोपः
धन्यवादः भगिनि केवि महोदय पठतु
धन्यवादः प्रथमाध्याये तृतीयः पादः धातुसंज्ञा भूवादयो धातवः इत् संज्ञाप्रकरणम् उपदेशे अजनुनासिक् इत् हलन्त्यं न विभक्तौ तुस्माः आदिर्नि चुद्वः शः प्रत्ययस्य चुटु लशक्व अत्यदिते इत् लोप विधिः तस्य लोपः
धन्यवादः महोदय अन्ये येषां पुरतः पुस्तकं नास्ति चिन्ता मास्तु पुस्तकं भवेत् एव इति नास्ति परन्तु वेब्सैट् वा तत्रापि एतदेव अस्ति परन्तु माताजी पुस्तके प्रकरणस्य नामं दत्त्वा तत्र सूत्राणाम् आवली यत्र अस्ति तत्र कः कः प्रकरण इति वदति यतः किञ्चित् अष्टाध्याय्यां सूत्राणि कुत्र सन्ति इति इत्यस्य कृते अद्य सर्वे पठितवन्तः अत्र पश्यति चेत् तत्र प्रथमं सूत्रम् अस्ति तृतीयपादस्य आरम्भं भवति प्रथमं सूत्रम् अस्ति धातु किं धातुसंज्ञा दीयते तत्र भूवादयो धातवः भू वा आदि धातवः इदानीं भू वा आदि इत्यस्य कः अर्थः धातुपाठे पाणिनिना ये भू वा इत्यादि धातवः लिखितानि लिखिता उपदिष्टानि ते धातवः इति तदनन्तरम् इत् संज्ञाप्रकरणं पश्यामश्चेत् अत्र सप्तसूत्राणि एव सन्ति उपदेशे अजननासिक इत् हलन्त्यं न विभक्तो तुस्मः आदिर्निटुडुवः शः प्रत्ययस्य चुटु अपि च लशकतद्धिते अतः अस्माकं व्याकरणे यः कोऽपि शब्दः भवतु तत्र धातु अस्ति प्रातिपदिकम् अस्ति अपि च तत्र आदेश आगम इत्यादि यः कोऽपि औपदेशिक प्रातिपदिकं तु औपदेशिक नास्ति यः कोऽपि औपदेशिकशब्दः पाणिना उक्तं तत्र इत् संज्ञायाः विषये ज्ञातुम् इच्छामश्चेत् तृतीयपादे प्रथमाध्यायस्य तृतीयपादे आगत्य वयम् एतानि सप्तसूत्राणि जानीमश्चेत् इत् संज्ञा सम्यक् जानीमः. तदनन्तरं तस्य लोपः इति विधिसूत्रम् अस्ति. उपदेशे अजाननासिक इति आरभ्य लशक तद्धिते इति सप्तसूत्राणि सन्ति. तानि कीदृशानि सूत्राणि? सूत्रप्रभेदः संज्ञासूत्राणि. तत्र विधि न तत्र विधि उक्ता नास्ति, केवलसंज्ञा केषां कदा इति संज्ञा भवति इत्येव तत्र दत्तमस्ति. अस्तु, कोऽपि प्रश्नाः सन्ति वा?
महोदय, भूवादयो धातुः अस्ति, भूधातुः अस्ति, वा किं कारणे अस्ति अत्र? येन गमति किं गणे अस्ति वा?
तत्र लिस्ट् मध्ये अस्ति एव, तावदेव. तत्र किमपि कारणं नास्ति, कश्चित् गणे अस्ति अतः वा उक्तम् इति अपि अथवा वा इत्यस्य अर्थविभाषा किमपि नास्ति. तत्र भू इति धातु आरभ्य धातवः सन्ति, अतः धातुद्वयस्य उल्लेख एव कृतमस्ति, अन्यत् कोऽपि कारणं नास्ति तत्र.
द्विधातुर्मध्ये उल्लेखनं किं कारणे अस्ति? अन्यथा भवादिगणे अस्ति, अदादिगणे अस्ति, सर्वाणि मत् दशगणे सन्ति, तत्र मत् कि एके मत् धातूनां प्रारभ्य धातूनाम् अस्ति,
द्विधातूनाम्
अस्ति
अस्ति इत्येव वयं प्रष्टुं न शक्नुमः, पाणिनिमहर्षि तु नास्ति, अतः तत्र अस्ति इत्येव के वि महोदय तत्र भू वा आदयः, अतः तत्र धातुपाठे ये ये धातवः सन्ति ते धातवः इति संज्ञा अस्ति, तेषां धातु इति संज्ञा अस्ति. अस्तु, के वि महोदय
नमस्कारः. अनुनासिक स्वराः उपदेशे नाम पाणिनेः मूलधातुषु मूलप्रत्ययेषु मूलादेशेषु मूलागमेषु च केचन स्वराः अनुनासिकाः. अत्र उपदेशे अवस्थायां पाणिनि अष्टाध्यायी मध्ये धातु प्रत्यय अपि च आदेश आगम मूलरूपे दीयते. तत् मूलरूपे यः अष्टाध्यायी मध्ये तिष्ठति तत्र तानि स्वराः केचन स्वराः अनुनासिकाः सन्ति. अनुनासिकः स्वरः नाम यस्मिन् अचि उपरि अनुनासिकस्वरः नाम यस्मिन् अचि चन्द्रबिन्दु उपरि अस्ति इति अनुनासिकचिह्नं अस्ति. अनुनासिक स्वरस्य वयं अनुनासिक स्वरस्य अचि परे यत्र चन्द्रबिन्दु चिह्नं दृष्टति तस्य नाम अनुनासिक अच् वा अनुनासिक स्वरः अस्ति. सामान्यतया धातुकोशेषु पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिक चिह्नं दृश्यते. सामान्यतया साधारणतया वयं अनुनासिकस्वरः कुत्रापि न दृश्यते, न लभ्यते. किमर्थम् इति चेत् प्राचीनकाले एकं सम्पूर्णं स्वरविज्ञानमासीत्. अस्माकम् आधुनिकयुगे इदं विज्ञानं लुप्तम्, अतः स्वरविषये अस्माकं क्लेशः. किं न अनुनासिकचिह्नं सामान्यतया साधारणतया दृश्यते. प्राचीनकाले स्वरविज्ञानं सम्पूर्णम् अस्ति, किन्तु अद्यतनकाले स्वरविज्ञानं पूर्णतः नास्ति. आधुनिकयुगे विज्ञानं लुप्तं भवति, अतः स्वरविषये क्लेशः अस्ति. स्वरविज्ञानस्य अभावे धातुकेशेषु अनुनासिकचिह्नानि न दत्तानि. सर्वविज्ञानस्य अभावे आधुनिककाले सर्वविज्ञानं न अस्ति, न वयं न लभ्यते, अतः सर्वविज्ञानस्य अभावे धातुकोश मध्ये अनुनासिक चिह्नानि न दत्तानि, न दृश्यते. किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां प्रयोगः भवति. पाणिनेः सूत्रेषु अनुनासिक स्वराणां प्रयोगः भवति अस्ति. यथा उपदेशे अच् अनुनासिक इत् सूत्रम् अस्ति इति प्रथम अध्याये तृतीय पादे द्वितीयं सूत्रम् अस्ति इति प्रथमम् इत् संज्ञा विधायकं सूत्रम्. यः सूत्र इत् संज्ञा विधायक विद्यते. उपदेशे अवस्थायां यः अच् अनुनासिकः अस्ति, उपदेशावस्थायां यः अच् अत्र अच् अनुनासिकः अस्ति तस्य इति संज्ञा भवति अनेन सूत्रेण. सम्यक् अस्ति वा
महोदय? अधुना अपि चन्द्रबिन्दु दृश्यते पुस्तके, माताजी पुस्तके दृश्यते, तत्र धातु पाठसन्ति, क्लेशः तु नास्ति अत्र अपि.
परन्तु अन्ये ये ग्रन्थाः सन्ति, पुरातनधातुपाठाः ये सन्ति, तत्र नास्ति. किमर्थं नास्ति? पूर्वं तु श्रुतिपरम्परा एव आसीत् खलु, सर्वे गुरु वदति, शिष्याः अनुवदन्ति, अपि च स्मरन्ति, कण्ठस्थीकुर्वन्ति. लेखनं तु अनन्तरम् आगतं, परन्तु तादृशानि पुस्तकानि न सन्ति. माताजी इदानीं स्वराङ्कितधातुपाठः इति विशिष्टधातुपाठः लिखितवती, परन्तु अन्ये ये धातुपाठाः सन्ति तत्र अस्ति वा नास्ति वा इति क्लेशः भवितुम् अर्हति. कुत्रचित् अस्ति कुत्रचित् नास्ति अतः सर्वदा धातोः मूलरूपं पश्यामः तत्र अनुनासिकवर्णस्य चिह्नः अस्ति इति न वक्तुं शक्नुमः कुत्रचित् अस्ति कुत्रचित् नास्ति अपि
आम् अधुनापि अधुनापि गुरुकुले सूत्रे सूत्राणि तत्परं धात्व स्मरणं छात्राः
कुर्वन्ति अस्माकमपि ध्येयं तथैव अष्टाध्यायाः पारायणं कृत्वा कण्ठस्थीकुर्मः वा किमपि न वदति
समय
एवं नास्ति प्रतिदिनं पञ्चसूत्राणि दशसूत्राणि कुर्वन्ति चेत् शक्यम् अस्तु एतत् सर्वैः सर्वम् अवगतं वा सर्वैः कोऽपि प्रश्नाः सन्ति वा अस्तु सुधा भगिनी प्रथमं सूत्रं किं वदति सुधा भगिनी सुधा पाण्ड्या भगिनी इदानीं पर्यन्तं न किमपि उक्तवती अतः भगिनी वदतु उपदेशे अजानानासिक इति सूत्रं सम्यक् न पठितं परन्तु अत्र यत् दत्तमस्ति तेन भवती किम् अवगतवती सम्यक् न श्रूयते किञ्चित् उच्चैः वदतु प्रयत्नं करोतु न श्रूयते अस्तु सुधा श्रीनिवासन् भगिनी वदति वा
उपदेशे अचानुनासिक इति सूत्रं वदति उपदेशे अवस्थायां यत् अनुनासिक अचुवर्णः अस्ति तस्य इत् संज्ञा भवति इति उदाहरणमस्ति गम्ल इति तत्र यस्य अकारः अनुनासिकः अस्ति तस्य इत् संज्ञा भवति इति अनन्तरं तस्य लोपः भवति अतः व्यवहारे गम् इति एव प्रयोगम् अस्ति
इदानीम् एकनिमिषं भगिनी गम्ल इति धातु अस्ति खलु तत्र अनुनासिकस्वरः कः अकारः एव वा ल इति तत्र ल इति ल नास्ति यवर ल इति ल नास्ति अस्माकं स्वरेषु अच् इति वर्णाः ये सन्ति तत्र अ इ उ ऋ ल तत्र ल इति स्वर अस्ति तत्र ल अनन्तरम् अकार अस्ति इति नास्ति ल इत्येव स्वर अस्ति तस्य अनुनासिक अस्ति ल इति अतः तत्र गम् ल इत्यत्र ल इति अनुनासिकस्वर अस्ति स्वर एव ल अस्ति तत्र लकार अकार नास्ति अस्तु धन्यवादः भगिनि इदानीं लक्ष्मी भगिनि
कुत्र भगिनि यथा मृलु दातु
के स्वरः अनुनासिकः
के स्वराः अनुनासिकाः इति विज्ञानं यदा अस्माकं सविधे नास्ति तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात् यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत् अतः उपदेशे च अनुनासिक इति सूत्रेण तस्य लोपः जातः के स्वराः अनुनासिक इति विज्ञानम् अस्माकं समीपे नास्ति सूत्रस्य प्रयोगं कथं कुर्मः इति शक्नुयामः वयं फलं दृष्ट्वा अनुमानं कुर्मः अत्र अनुनासिकचिह्नं स्यात्
अस्तु स्वशब्देः वक्तुं न शक्यते वा अस्तु यदा इदानीं वयं स्वरविज्ञानम् इदानीं लुप्तः जातः न कोऽपि न जानाति इति उक्तः अतः अत्र औपदेशिक धातोः कुत्र अनुनासिक अस्ति कुत्र अनुनासिक नास्ति इति तु वक्तुं न शक्नुमः सर्वदा वक्तुं न शक्नुमः यथा माताजी यत् पाठः लिखितवती तत्र तु अस्ति परन्तु अन्यत् कोऽपि औपदेशिकधातुपाठः पश्यामश्चेत् तत्र एतादृश अनुनासिकचिह्नाः सन्ति एव इति ग्यारण्टि नास्ति इति वक्तुं न शक्नुमः तत् अतः वयं कथं जानीमः उपदेशे अच् अनुनासिक इति अत्र किम् उच्यते यः अच् अनुनासिक अस्ति तस्य इति संज्ञा भवति इति कस्य इति संज्ञा भवति इति वयं कथं जानीमः प्रथमं तु अस्ति इत्संज्ञकवर्णानां लोपः भवति तत् अस्ति विधायक विधिविधायकं सूत्रम् इत्तस्य लोपः इति अतः औपदेशिक अवस्थायां ये ये स्वराः आसन् अपि च लौकिकरूपे नास्ति ते एव अनुनासिकवर्णाः इति ऊहं कर्तुं शक्नुमः इति अनुमानं कर्तुं शक्नुमः अस्तु अतः अत्र तु चन्द्रबिन्दुः न दृश्यते किमर्थम् एतत् अनुनासिक अस्ति कथं जानीमः इति प्रश्ने सति वयं लौकिकरूपे के के वर्णाः तिष्ठन्ति इति दृष्ट्वा एव निर्णयं कुर्मः एतादृश ये स्वराः आसन् ते अनुनासिकाः इति अस्तु सम्यक् न अवगतं महोदय पृच्छतु महोदय सम्यक् न श्रूयते महोदय क्षम्यताम् मृडालेति भगिनी अस्ति वा
आम् यथा जम्लु धातुः अत्र लु इति अच् वर्णः औपदेशिकधातौ अस्ति लौकिकधातौ च नास्ति अतः तस्य लोपः जातः स्यात् अनेन बुध्यते यत् लु इति अच् वर्णः अनुनासिकः अपि च उपदेशे अजनुनासिक इति सूत्रेण तस्य इत् संज्ञा भवति तदा अन्यत् सूत्रम् अस्ति तस्य लोपः प्रथमपादे प्रथमाध्याये तृतीयपादे नवमसूत्रं येन इत्संज्ञकवर्णानां लोपः भवति तर्हि तस्य लोपः इत्यनेन लु लोपः गम् इति अवशिष्यते इदानीं यत् वयं पूर्वम् पठितवन्तः तत्र तस्य एकम् उदाहरणमस्ति अत्र गम्लु धातुः अत्र लु इति अच् वर्णः औपदेशिकधातौ अस्ति इत्युक्ते गम्लु इति धातुरूपम् औपदेशिक अवस्थायाम् अस्ति परन्तु उपयोगे लौकिकधातौ रूपे तत्र लु न दृश्यते अतः तस्य लोपः जातः इति चिन्तयामः अनेन बुध्यते यत् लु इति अच् वर्णः अनुनासिकः अपि च उपदेश अजनु अजनुनासिक इति सूत्रेण तस्य लोप भवति. तर्हि उपदेशे अजनुनासिक इत् इति सूत्रेण लोपं कुर्मः लुकारस्य, तदा अन्यत् सूत्रं तस्य लोपः इति संज्ञकवर्णानां लोप भवति, येन इत् संज्ञकवर्णानां लोप भवति. तर्हि तस्य लोपः इत्यनेन लु लोपः अथ गम् इति अवशिष्यते. तर्हि अत्र गम् इति अनुनासिक अनुनासिक इत्युक्ते लु इति केवलम् अज् वर्णः खलु भगिनि, न तु अनुनासिक न
लु लु इत्यस्य अनुनासिक अपि अस्ति, अन् अनुनासिक अपि अस्ति. इदानीं वयम् अत्र यदा पश्यामः तत्र तु चन्द्रबिन्दु नास्ति, अतः लकार अनुनासिक अस्ति वा न वा इति ज्ञातुं न शक्नुमः.
परन्तु अज् तु अस्ति,
अज् तु अस्ति, स्वर तु अस्ति, परन्तु अनुनासिक अस्ति वा न वा इति न ज्ञातुं शक्नुमः. कथं ज्ञातुं शक्नुमः? लोके किम् उपयुज्यते? गम् एव.
गम्
अतः तत्र वयम् अनुमानं कर्तुं शक्नुमः, लकार यदि अपगच्छति तत्तु तस्य लोपः इत्यनेन एव अपगन्तुं शक्यते. अतः तस्य लोपः इत्यस्य कृते किम् आवश्यकं? तस्य इत्संज्ञा भवेत्. इत्संज्ञा कथं भवति? उपदेशे अजननासिक इत् इति सूत्रेण. अतः तत्र लकार अनुनासिक अस्ति इति वयं निर्णयं कुर्मः इति अनुमानं कुर्मः.
अत्र उपदेशे अज् अनुनासिक इत् अत्र अज् अनुनासिक इत्युक्ते अच् युक्त अनुनासिक वा? इट्स् वन् वर्ड् अज्
अनुनासिक. तत्र विशेषणविशेषभावः अस्ति, कीदृशः अच् अनुनासिक अच्.
अहं चिन्तयति अच् भिन्नम्
भगिनी. अहं पृच्छामि.
पृच्छतु भगिनि.
भगिनी अहं चिन्तितवे हौ पाणिनिना थिङ्क् देट् इट् इस् इट् देर् इस् अ गमलु बट् लौकिकभाषा लौकिक तु गम अस्ति, सो हौ ही विल् डिसैड् देट् देट् मस्ट् बि ल.
No, that is whatever he has decided.
You have to go and ask.
तथा नास्ति, परन्तु किमर्थं ल एव अस्ति, किमर्थं श एव अस्ति, किमर्थं प एव अस्ति इत्यस्य उत्तरं तु नास्ति. परन्तु षकार इति षकार इत् अस्ति चेत् पकार इत् अस्ति चेत् किं भवति इत्येव पाणिनिना लिखितमस्ति सूत्रेषु. षित् अस्ति चेत् किं भवति, पित् अस्ति चेत् किं भवति, लृद् धातुः अस्ति चेत् किं भवति, गम्रु एव तत्र लु अस्ति इति न, अन्यदपि केचन धातवः सन्ति. अपि च किमर्थं गम्लु इत्यत्र एव लुकारः अस्ति अन्यत्र नास्ति? किमर्थं कुत्रचित् डु अस्ति, किमर्थं कुत्रचित् प अस्ति? तेषां सर्वेषां किमपि प्रयोजनम् अस्ति. तत् प्रयोजनं वयं यदा अग्रे पश्यामः, अग्रे पाठाः सन्ति तत्र आहा यु विल् हाव् दोस् आहा मोमेण्ट्स्, आहा पकार अस्ति अतः एतादृशकार्यं भवति. सो देट् इस् अ शार्ट् वे खलु. सर्वत्र पाणिनिमहर्षिणा लाघवम् इच्छति, अतः यत्र एकविधकार्यं भवति तत्र पकार इति इत्संज्ञक योजयित्वा सर्वेषाम् एतत् कार्यं भवति इति एव सः वदति. कुत्रचित् सूत्रेषु गुण भवति, गुणस्य निषेधः भवति इत्यादि. अन्यथा द्विसहस्रधातु तु पाणिनिना पाणिनिमहर्षिणा एव लिखितानि, तदनन्तरं तत्र अन्ये प्रत्ययाः योजयित्वा नूतनधातोः अपि वयं कर्तुं शक्नुमः. कृते इत्संज्ञकवर्णाः सन्ति. कस्य वर्णस्य किं प्रयोजनम् इति वयम् अनन्तरं जानीमः.
धन्यवादः. एकः प्रश्नः अत्र, यथा गमलु अत्र टङ्कणे लुकारस्य उपरि चन्द्रबिन्दुः आवश्यकः खलु?
परन्तु तत्र तु लेखनपद्धति एव अस्ति.
अनुनासिक अज् अस्ति तत्र आवश्यकं दर्शने.
तत्तु अस्माकम् इदानीं वयं वदामः दर्शने आवश्यकम् इति. पूर्वं तु श्रुतिपरम्परा एव आसीत्. तत्र गम्लुन् इति यदा नासिकया उच्चारणं भवति तदा तत्र अनुनासिका अस्ति इति सर्वे जानन्ति. इदानीम् अस्माकं पुरतः लु इत्यस्य उपरि चन्द्रबिन्दु भवेत् इति वयम् इदानीं वदामः. तत्तु लेखन लेखनपद्धतिः एव.
किमर्थम् अत्र अज् अनुनासिकयुक्त अज् वर्णः तस्य एव इत् सम्यक् खलु, अनन्तरं तस्य एव लोपः. यदि तत्र तथैव न लिखामः तर्हि तस्य लोपः भवति इति उपदेशे अज् अनुनासिक इति सूत्रेण न वक्तुं शक्नुमः खलु?
न, परन्तु तत्र इत्येव अग्रिमपरिच्छेदे लिखितमस्ति. पद्माभगिनी वा पठति, पद्माभगिनी पठति वा?
इवन् महोदय, मोबैल् एप्लिकेशन् तत्र कीबोर्ड् अस्ति, तत्र अपि चन्द्रबिन्दु नास्ति कुत्रापि.
संस्कृत अस्ति चेत् अस्ति, हिन्दी अस्ति चेत् अस्ति, संस्कृत अस्ति चेत् नास्ति. एतादृश कुत्रचित् अस्ति. अतः अत्र भवेत् इति तु अस्माकम् इदानीम् अवगमनम् अस्ति. अत्र चन्द्रबिन्दु लिखामश्चेत् तत्र अनुनासिक भवति इति. परन्तु भाषा तु यः वदामः अपि च यः शृणुमः सा भाषा खलु. भाषा
अनुनासिकयुक्त अपि लुकारस्य उच्चारणम् आसीत् विहाय अपि आसीत् खलु उच्चारणम्?
आम्, उच्चारणम् आसीत्, लेखनं तु नासीत् खलु. लेखनं तु अनन्तरम् आगतम्.
लेखनमपि अस्ति गीताया सूत्रं श्लोकानि किञ्चित् शुक्ला श्लोकानि अस्ति. चन्द्रबिन्दुः अपि अस्ति.
कुत्रचित् अस्ति, कुत्रचित् नास्ति. अतः लेखक लेखितुम् इच्छति चेत् तत्र अस्ति, नास्ति चेत् नास्ति. अपि च तत्र सुर स्वराः अपि उदात्त अनुदात्त स्वरित इति वयं दृष्टवन्तः. अत्र किमपि दृश्यते वा? अर्थात् एतत्तु सर्वं स्वरूपमहोदयेन टङ्कणं कृतम् अस्ति. परन्तु पूर्वतन ये वेदाः इत्यादि पुस्तकानि सन्ति तत्र कुत्रचित् अस्ति, कुत्रचित् नास्ति. वेदेषु इत्यादि अस्ति स्वरित इति लेखनं. परन्तु साधारणतया वयं पश्यामश्चेत् भवितुम् अर्हति, न दृश्यते, अस्ति नास्ति किमपि वक्तुं न शक्नुमः. अस्तु, पद्मा भगिनी पठतु. अनुनासिकः अस्ति, न श्रूयते भगिनि, वदन् अस्ति वा?
श्रूयते वा?
इदानीं श्रूयते.
गृ अनुनासिकः अस्ति इति कथं ज्ञातं? फलं दृष्ट्वा लोके गम् इत्येव दृश्यते, अतः गृ इत्यस्य लोपः जातः. लोपः जातः चेत् उपदेशे अजनुनासिक इत्येव सूत्रेण अर्हति स्म. अतः गृ अनुनासिकः स्यात् इति अनुमानम्.
किम् अवगतं भगिनि? न श्रूयते.
हलो, नमस्ते भगिनि, श्रूयते वा?
इदानीं श्रूयते भगिनि
अविनाशिकः कथं ज्ञातुं शक्यते फलं दृष्ट्वा एव ज्ञातुं शक्यते लोके गम् दृश्यते अतः इत्यस्य लोपः ओन्लि बै नोयिङ्ग् द रिसल्ट् बै सीन् द रिसल्ट् यु केन् नो दट् रिसल्ट् लोपः भवति इद् लोपः भवेत् इति ज्ञायते अग्रे ज्ञातः इति
आम् 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 सम्यक् अतः अत्र गम् ल् यदि लिखितम् अस्ति तत्र चन्द्रबिन्दुः लिखितं नास्ति चेत् वयं कथं जानीमः अत्र अनुनासिका अस्ति वा न वा तत्तु फलं दृष्ट्वा अतः लोके वयं गम् इति धातु एव स्वीकुर्मः प्रयोगे उपयुज्यामः अतः तत्र गम् अस्ति गम् अनन्तरं यत् लकारः आसीत् तत्तु न दृश्यते विच् मीन्स् तस्य लोपः जातः लोपः कथं भवति तस्य लोपः इति सूत्रेण एव भवति परन्तु लोपः कस्य भवति इत्संज्ञकवर्णानाम् एव भवति अनुनासिक अथवा अच्वर्णानां कृते कः सूत्रः उपदेशे अजानुनासिक इत् अतः इत्संज्ञा भवति यदि तत् स्वर अनुनासिक अस्ति चेत् अथ रिवर्स् इञ्जिनियरिङ्ग् वयं गम् लु इत्यस्य गम् अभवत् इति यदा पश्यामः तत्र लुकार अनुनासिक आसीत् इति अस्माकम् ऊहं भवति अस्तु सुखलक्ष्मी भगिनी पठति वा
श्रूयते वा
श्रूयते
कुत्रचित् स्वरस्य इत् संज्ञा प्राप्तुं भवति अपरेण सूत्रेण यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति यथा डुभवत् इत्यस्मिन् डकारो डकारोत्तरवस्तु यः उकारः अस्ति सः सः उकारः अनुनासिकः नास्ति तत्र टु इत्येव एकः वर्णसमूहः अधः एतादृशं विशिष्टम् इत्संज्ञक कार्यम् अस्तु प्रदर्श्यते सम्यक् न अवगतं किन्तु प्रयत्नं करोमि इदानीं वयं दृष्टवन्तः अनु भिन्नं न अथवा भिन्नं सः स्वरः अस्ति चेत् एतः स्वरः लोपः अस्ति चेत् एतत् स्वरः इत् इति दृष्टवन्तः इदानीं भिन्नः विषयः अत्र भवति किं किं चेत् स्वरस्य न वक्तुं न
अस्तु कुत्रचित् इदानीं वयं किं दृष्टवन्तः वर्णः यदि अच् अस्ति स्वरः अस्ति अपि च अनुनासिका अस्ति तदा तस्य इत्संज्ञा भवति लोपः भवति तत्र यदि अनुनासिकचिह्नः नास्ति तदा वयं कथं चिन्तयामः एतत् स्वरः अस्ति स्वरः अपगच्छति अतः अनुनासिका अस्ति परन्तु सर्वदा तादृशस्थितिः नास्ति अन्यत् एकं सूत्रमस्ति अग्रे पश्यामः आदिनिरुढः इति तत्र किं भवति केषाञ्चन वर्णानां समूहरूपेण इत्संज्ञा भवति प्रायेण एकवर्णस्य एव इत्संज्ञा भवति परन्तु आदिनिरुढः इति एकं सूत्रम् अस्ति तत्र वर्णसमूह तस्य इति संज्ञा भवति अतः तादृशवर्णसमूह अस्ति चेत् अपि च तत्र स्वरः नास्ति चेत् वयं केन सूत्रेण इति संज्ञा अभवत् इति निर्णयं कुर्मः तावदेव अत्र लिखितमस्ति उदाहरणमस्ति गृपचष तत्र षकार नास्ति चकारानन्तरं यः अकारः अस्ति तदपि नास्ति खलु यदा वयं पच् इति धातु पश्यामः पचति पचते इति यदा पश्यामः तत्र किमस्ति पकारः अस्ति अकारः अस्ति चकारः अस्ति वर्णत्रयः एव खलु यदा वयं लोके पच् इति धातु पश्यामः तत्र पकार अकार चकार इति वर्णत्रयं परन्तु मूलधातेषु धातुषु कति वर्णाः सन्ति दु प च ष डकार डकार तत्र डकारोत्तरवर्ति उकारः इत्युक्ते डकार अनन्तरम् उकारः अस्ति खलु डकार उकार तदनन्तरं पकार अकार चकार अकार षकार सप्तवर्णाः सन्ति वर्णानि सन्ति खलु परन्तु अवशिष्यते किं पच् तत्र षकारः नास्ति केन सूत्रेण इति अनन्तरं पश्यामः अकारः चकारोत्तरवर्ति चकारस्य अनन्तरं यः अकारः अस्ति तदपि नास्ति तत्र तु वयं तत्र अकार अनुनासिक अस्ति इति वक्तुं शक्नुमः परन्तु डकार उकारः यत्र अस्ति तत्र डकार उकार इति वर्णसमूहस्य इत्संज्ञा भवति पुनः सूत्रम् अनन्तरं पश्यामः परन्तु अत्र डकार उकार इति वर्णसमूहस्य इत्संज्ञा भवति अतः अत्र उकारस्य अनुनासिक अस्ति अतः इत्संज्ञा भूत्वा तस्य लोपः अभवत् इति वक्तुं न शक्नुमः अतः वयम् इदानीं डु इति आदौ भवति अतः कस्य इति संज्ञा भवति कस्य इत्युक्ते कस्मिन् आदेशे वा आगमे वा आदि भवति अन्ते भवति कस्य वर्णस्य भवति एतादृशं सर्वम् एते सप्तसूत्राणि सन्ति तत्र अस्ति इदानीं वयं सूत्रं न दृष्टम् इदानीं तु परिशिष्टं पीठिकारूपेण वयम् इत्संज्ञा क्या तेन तस्य प्रयोजनं किं किं भवति इत्येव पश्यन्तः स्म अस्तु अस्तु इदानीं समयः जातः क्षम्यतां किञ्चित् अद्य समयः अभवत् अस्तु कोऽपि प्रश्नाः सन्ति वा अथवा परिच्छेदद्वयं समापयामः वा
आं महोदय
अस्तु सुचिरा भगिनी पठति वा
आं भगिनि आं भगिनी श्रूयते मम ध्वनिः श्रूयते
सम्यक् श्रूयते
तर्हि इत्संज्ञाप्रकरणे सप्तसूत्राणि सन्ति अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि किन्तु तेषु केवलं सप्तभिः इत्संज्ञा विधीयते सप्तसूत्राणि ज्ञायन्ते चेत् सर्वं इत्संज्ञाप्रकरणं ज्ञायते इमानि च सप्तसूत्राणि पाणिनिना सौ कार्यार्थम् एकत्र स्थापितानि तर्हि इत्संज्ञाप्रकरणे वयं जानीमः सप्तसूत्राणि सन्ति प्रकरणे इत्युक्ते सम्बन्धानि सूत्राणि एकस्मिन् स्थाने सम्बन्धानि सूत्राणि भवन्ति चेत् प्रकरणम् अष्टाध्यायचतुस्सहस्रसूत्राणि सन्ति बहूनि सूत्राणि सन्ति अष्टाध्यायां 4000 इत्युक्ते 4000 मेम्
चतुस्सहस्रम् इत्युक्ते फोर्थौसण्ड्
किन्तु तेषु केवलं सप्तभिः संज्ञा विधीयते तेषु केवलं सप्तभिः संज्ञा विधीयते सप्तसूत्राणि संज्ञा प्रकरणे सप्तभिः सूत्राणि सन्ति सप्तसूत्राणि सन्ति संज्ञाप्रकरणाय सर्वम् इत्संज्ञाप्रकरणं ज्ञायते वयं जानीमः चेत् वयं सप्तसूत्राणि जानीमः चेत् सर्वम् इत्संज्ञाप्रकरणं ज्ञायते ज्ञातुं शक्नुमः
सम्यक् इमानि सप्तसूत्राणि जानीमश्चेत् यत्र कुत्र इत्संज्ञा करणीया वयं कर्तुं शक्नुमः इत्येव तत्र उप चतुस्सहस्रसूत्राणि सन्ति तत्र केवलं सप्तसूत्राणि सन्ति तैः इत् संज्ञायाः इति संज्ञा दीयते एतानि सूत्राणि जानीमश्चेत् वयं यत्र कुत्र इत् संज्ञा करणीया वयं कर्तुं शक्नुमः अस्तु अग्रिमं परिच्छेदं सुधा भगिनी पठति वा
सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु उपयुज्यते उपदेशेषु इत्युक्ते अत्र धातुषु अपि च प्रत्ययेषु च त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न धातुषु अत्र प्रत्ययः इत्यनेन प्रत्ययाः आदेशाः आगमाः प्रयाणमपि ग्रहणं भवति एव पठितवन्तः सप्तसूत्राणि सन्ति इति इत्संज्ञाप्रकरणे तत्र चत्वारि सूत्राणि एव उपदेशे प्रयुज्यन्ते इत्युक्ते धातुषु अपि च प्रत्ययेषु त्रीणि केवलं प्रत्ययेषु एव प्रयोगम् अस्ति अत्र धातुषु प्रयोगः नास्ति प्रत्ययः इत्यस्य अर्थमस्ति प्रत्ययाः आदेशाः आगमाः त्रयाणां ग्रन्थमपि अस्ति
अस्तु सुपलक्ष्मी भगिनी किम् अवगतवती
आं भगिनि
आमाम् अत्र यत् परिच्छेदमस्ति तत्र भवतीः अवगमनं किम्
सप्तषु सूत्रेषु
न श्रूयते भगिनि न श्रूयते किञ्चित् समीपे आगत्य वदति वा मध्ये मध्ये ध्वनिः सम्यक् अस्ति मध्ये नास्ति आमाम् इदानीं सम्यक् श्रूयते
एव संज्ञा इति विषयः दृश्यते दीयते क्रियते अत्र त्रीणि प्रत्ययविषयं त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न दातुं सो त्रीणि सूत्राणि प्रत्ययविषयं प्रत्ययविषये वदति अत्र प्रत्ययः इत्यनेन प्रत्ययाः आदेशाः आगमाः त्रयाणाम् अपि ग्रहणम् प्रत्ययम् इत्युक्ते प्रत्ययस्य केवलं प्रत्यय एव नास्ति प्रत्ययस्य आदेशः प्रत्ययस्य आगमः प्रत्ययस्य लोपः अत्र व्यावकाण्डं भवति
त्रीणि अस्तु भगिनि तत्र प्रत्ययस्य एव न धातोः यत्र आगमः आदेशः इत्यादि भवति तत् अपि अत्र ग्रहणीयम् अतः अस्माकं सप्तसूत्राणि सन्ति तेषु चत्वारि सूत्राणि औपदेशिक यत्किमपि अस्ति तत्र कार्यं कुर्वन्ति परन्तु त्रीणि सूत्राणि केवलं प्रत्ययागम आदेश इत्यस्य कृते एव सन्ति पुनः भगिनी अपि तदेव वदति वा चत्वारि सूत्राणि धातु अपि प्रत्ययेषु अपि अतः यत्किमपि औपदेशिक अस्ति धातु प्रत्यय आदेश आगम लोपः इत्यादि सर्वत्र कार्यं कुर्वन्ति त्रीणि सूत्राणि धातुषु कार्यं न कुर्वन्ति एस्ति अदवेराव् अस्तु
किन्तु त्रीणि सूत्रे त्रीणि सूत्राणि प्रत्ययविषयमेव केवलं प्रत्ययविषयमेव वदति
अस्तु धन्यवादः भगिनि युगलकिशोर् महोदय एकवारं सर्वम् अद्य वयं किं किं अधीतवन्तः तस्य किञ्चित् संक्षेपं वदति वा
एतत् संज्ञाप्रकरणे अत्र अस्ति सप्तसूत्राणि सन्ति प्रथमश्च चत्वारि सूत्राणि प्रत्यये एन् धात्वे कार्यं करोति अष्टे त्रीणि सूत्राणि अस्ति चत्वारि सूत्राणि अस्ति एकं वार्तिकमपि अस्ति परम् अवशेषे त्रीणि सूत्राणि अस्ति तत्र प्रत्यये कार्यं करोति प्रत्यये कार्यं करोति आगम आदेश कार्यं करोति धातु धातुकार्यं न कुर्वन्ति
अस्तु
उदाहरणमस्ति गम्लि धातुः अस्ति अत्र लि तत्र तथापि वर्तते लि तथा उद्देश्य जनौ नास्ति गीत सूत्रेण यत् संज्ञा भवति तत्परं तस्य लोपः सूत्रेण लोपः भवति अस्य गम् लौकिकधातु अवशिष्यते
अस्तु धन्यवादः महोदय कोऽपि प्रश्नाः सन्ति वा
न प्रश्नाः न सन्ति
अस्तु शान्तिमन्त्रमपि भवानेव वदतु
ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदुच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 सर्वेभ्यो नमो नमः गुरुभ्यो गुरुभ्यो नमो नमः
धन्यवादः अग्रिमसप्ताहे पुनर्मिलामः
धन्यवादः
आम् राम राम भगिनी
राम राम
धन्यवादः
धन्यवादः भगिनी